गायम् पित्वा गायत्र्योऽर्चन्त्यर्कमर्थिनाः ब्रह्माणस्त्वा सलक्रतमुद्वंसमीवये विरे यस्वारोहद्भूर्यस्पष्टकर्त्वम् तदिन्द्रो अर्थम् ते दति यूतेन वृष्णिरेजति युक्ष्वा हि केशिना हरीवृषणाकक्ष्यप्रा अथा न इन्द्रसोमपा गिरामुपसृतिम् चर ये हि स्तोमा अभिस्तराभिगृह्णीह्यारूपा ब्रह्म च नो वसोसचेन्द्रयज्ञम् च वर्धय उत्थनन्द्रायशम् स्यम् वर्धनम् पुरुनिश्चिधे शक्रो यथा सुतेषु नो रारणः सख्येषु च सहित्वजीवहेतम् राजेतम् सुवीर्ये स शक्रपुतनः स गजिन्द्रो वसुजयमानः सुविवृतम् सुनिरजमिन्द्रत्वादातमिज्ञसाः गर्भामपव्रजम् प्रेधिकृष्वराधो अद्रिवः नयित्वा रोदसी बुभेर्घायमानमिन्दतः देशः सर्वतीरः सङ्गा अस्मभ्यम् धूनिः आश्रत्कर्णश्रुधीह भन्नो चिद्दधिष्वमे गिराः इन्द्रस्तोममिमम् मम कृष्वा युजस्थितन्तरम् विद्मा हित्वा वृषम् तमम् वाजेषु हवनश्रुतमम् वृषम् तमस्य होमः भूतिम् सहस्रसातमा आतून इन्द्रकौशिकमन्दसारस्तुतम् पीब न व्यमायुः प्रसूतिरगृभी सहस्रसा वृषिम् परित्वा निर्वणो गिराजिमा भवन्तु विश्वताः वृद्धायुमनुवृद्धयो जुष्टा भवन्तु जुष्टयः